वागर्दविव सम्प्रक्तौ वागर्दप्रतिपत्थये जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॐ येनाक्षरसमां न्यायम् अधिगम्यं महेश्वरात् कृष्णं व्याकरणं प्रोक्तं पाणिनये नमः तस्मै पाणिनये नमः ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ क्षम्यतां भगिनि किञ्चित्
उत्तमं धन्यवादः भगिनि धन्यवादः अस्तु अद्य किञ्चित् अभ्यासरूपेण अहं कानिचन करपत्राणि प्रेषितवती वाट्साप् मध्ये
अहं पश्यामि भगिनि
उत्तमम् एकं एकस्मिन् करपत्रे एकं चित्रम् अस्ति किमपि महोदया उपविशति उपरि एकं व्यजनम् अस्ति उत्पीठिका अस्ति
आं भगिनि
तत् अस्तु अस्तु अधुना एकं चित्रम् अस्ति अपि च सः पुरुष नरस्य नाम महोदयेन नाम किं रमेशः इति रमेशः अस्तु एकमेकं वाक्यं रचयतु आरम्भं करोतु सुधा भगिनी पापाजी प्रणाम
नमस्कारः पापाजी धन्यवादः
नमस्कारः पापाजी नमस्कारः दीप्षिका भगिनी नमस्कारः
दीप्षिका भगिनी अधुना एव अस्तु
रमेशः कार्यालये अन्तः उपविशति
उत्तमम् उत्तमं शिवरूपा भगिनी
आं भगिनि अहं
रमेशस्य
अहम् ओपेन् करोमि भगिनि ओके भगिनि रमेशस्य वामतः अवकरिका अस्ति वामतः इस् लेफ्ट् सैड् भगिनि अवकरिका इत्युक्ते भगिनि सो इट्स् सेल्फ् ओर्
किं पश्यतु एकवारम् अवकरिका इत्युक्ते यत्र व्यर्थविषया
डस्ट्बिन् ट्रेश् ट्रेश् ट्रेश्
वामतः किमस्ति
अवकरिका अस्ति
अवकरिका कीदृशपदम्
अवकरिका स्त्रीलिङ्ग आकारान्तपदं भगिनि
तदेव उत्तमं भगिनि पापाजि एकं वाक्यं रचयतु.
रमेशस्य
उपरि
गजनम् अस्ति.
एकं व्यजनम् अस्ति. उत्तमम्. एकं व्यजनम् इत्युक्ते पङ्खा. उत्तमम् उत्तमं. रमेशस्य उपरि एकं व्यजनम् अस्ति. हसुद भगिनी.
रमेशस्य पृष्ठतः एकं भावचित्रम् अस्ति.
भावचित्रम् इत्युक्ते
भावचित्र फोटो.
पोर्ट्रेट्. मोर् लैक् पोर्ट्रेट्. भाव यत्र यस्मिन् किञ्चित् भावं प्रकटितं भावचित्रमस्ति. उत्तमं. दीप्शिका भगिनी स्वागतम्.
नमस्कारः.
अस्तु. शिवरूपा भगिनी.
आं भगिनि. रमेशः दक्षिणतः रमेशस्य रैट् भगिनि. रमेशस्य दक्षिणतः सेवकः अस्ति.
सेवकः अस्ति. दक्षिणतः इत्युक्ते
राइट साइड.
दक्षिणतः सेवकः. सेवकः इत्युक्ते
सेवकः इस् लैक् गार्ड्.
गार्ड्. अपि च असिस्टेण्ट्.
यस् भगिनि. असिस्टेण्ट्.
उत्तमं.
राइट साइड
भगिनी. हम देखते हैं ना मोबाइल को, हमको अपोजिट में.
वदतु दीप्शिका भगिनी. एकं रचयतु.
रमेशः उपरि.
रमेशः उपरि अस्ति वा? रमेशः तु
उपरि. पापा ने बोल दिया व्यजनम् पुरतः नीचे है. रमेशस्य पुरतः.
पुरतः वा?
पुरतः मतलब नीचे नहीं. पुरतः मतलब आगे. आगे कुर्सी है ना उनके. रमेशः पुरतः
वा? तत्र पश्यतु, समीकरोतु.
पुरतः उत्पीठिका.
रमेशस्य पुरतः
उत्पीठिका.
उत्पीठिका. उत्पीठिका इत्युक्ते
कुर्सी.
उत्पीठिका. पीठ इत्युक्ते उत्पीठिका इत्युक्ते रेस्ड् पीठ. रेस्ड् प्लाट्फार्म् इत्युक्ते किम्? तदेव उत्पीठिका इत्युक्ते तदेव. वदतु. उत्पीठिका अस्ति. उत्तमम्. पापाजि एकं वाक्यं रचयतु. तस्य गृहे किञ्चित् ध्वनिः आगच्छति. शिवरूपा भगिनी.
म्यूट्.
पापाजि. दत्तं. तत्र दत्तं नीचे अधभाग तत्र दत्तम् अत्र दत्तम्
रमेशस्य पृष्ठतः एकं चित्रम् अस्ति
अस्तु एकं चित्रम् अस्ति पृष्ठतः एकं चित्रम् अस्ति तत्तु सुधा भगिनी उक्तवती भावचित्रम् अस्ति तस्य पृष्ठतः एकं भावचित्रम् अस्ति तत् वाक्यं तु सुधा भगिनी उक्तवती अन्यवाक्यं वदतु अन्यवाक्यं पृष्ठतः अन्य किमपि अस्ति पृष्ठतः अल्मीरा तु संस्कृतभाषायां वदतु साहाय्यं करोतु कोऽपि साहाय्यं करोतु निधानिका अपि च पृष्ठतः
निधानिका
एका निधानिका अस्ति उत्तमं हा सुधा भगिनि
आं भगिनि उत्पीठिकायाम् अधः एकः शुनकः अस्ति
पुनः वदतु
उत्पीठिकायाम् अधः
उत्पीठिकायाम् इत्युक्ते विभक्तिरूपं
सप्तमी
सप्तमी समीचीनं वा अत्र
सप्तमी नास्ति उत्पीठिकाम् अधः
उत्पीठिकायाः
लतायाः उत्पीठिकायाः अधः एकः शुनकः अस्ति
शुनकः किं करोति
शुनकः निद्रां करोति
निद्रां करोति उत्तमं तदेव शिवरूपा भगिनी
भगिनी रमेशस्य अन्तः कार्यालयः अस्ति
रमेशस्य अन्तः वा
रमेशः रमेश न भगिनि रमेशः कार्यालये अस्ति
तदेव रमेशः कार्यालये अस्ति दीप्षिका भगिनी
रमेशस्य सेवकः बहिः अस्ति
रमेशस्य सेवकः बहिः अस्ति उत्तमं पापाजी एकम् अन्यवाक्यं निधानिकायाः अपि च निधानिकायाम् अनेकानि पुस्तकानि सन्ति उत्तमं सुधा भगिनी रमेशः किं करोति
रमेशः किञ्चित् कार्यं करोति
किञ्चित् कार्यं करोति अपि च किञ्चित् लिखति उत्तमं कुत्र लिखति
पत्रे लिखति
अपि च कागद इत्युक्ते किं
पेपर्
कागद
भगिनि फर् पेपर् पुटः
पुटः इस् लैक् पन्ना पुटः
पुटसंख्या
बोलते हैं बट डोंट नो द यूसेज
ओके बगी
पुटः पेज राइट बगी
हाँ पेज राइटिंग ऑन अ पेज इज द डिफरेंस बिटवीन पेज एंड पेपर इज व्हाट पापा
difference?
What is the difference?
A book has many pages. Every page is numbered.
May not be numbered also is a page, no?
So when we write something, that paper becomes a page.
No.
No.
What is the difference between paper and page?
Page belongs to a book. When you are writing on a copy, notebook.
So if there is a page lying on like this, you won't call a page?
No.
It's just a one piece of paper, you will not call it a page.
Panna Hindi mein.
Panna.
Paper.
But kitab ke bhi panne bolte
hain. Kitab ke panne.
Generally speaking, panna. Itne panne hain. कौन सा पन्ना पढ़ रहे हैं, कौन सा पेज पढ़ रहे हैं?
हाँ, कौन सा पन्ना पढ़ रहे नहीं बोलते. करेक्ट करेक्ट. इन अ इन अ हाँ हाँ हाँ. सो इत्युक्ते भेदः कः? पुट 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 इत्युक्ते पेज न. पुट इत्युक्ते पेज वा? हाँ पुट. सो पुस्तके बहवः पुटाः सन्ति, किन्तु यत् पुटं पुस्तके नास्ति तत्तु कागदः एव अस्ति इति. अवगतं सर्वे?
आम भगिनि.
आम भगिनि.
कागद कागद पेज. उत्तमम् उत्तमम्. अस्तु, एकम् अन्य अन्यचित्र अस्ति. एकं ऋषि अस्ति, तत्र एक वृक्ष अस्ति, कानिचन छात्राणि सन्ति तत्र.
आम भगिनि.
अभ्यासः विंशतिः. अभ्यासः विंशतिः. दीप्षिका भगिनी आरम्भं करोतु.
चित्रं दृष्ट्वा रिक्तस्थानानि उच्चितैः शब्दैः
उचितैः
शब्दैः पूर्यत.
पूरयत.
पूरयत
इत्युक्ते
चित्र को देखकर रिक्त स्थानों की उचित शब्द से पूरयत करिए.
पूरा पूरा
करिए.
पूरा
करिए.
उत्तम. हाँ करो तो भगिनी.
मुनिवरस्य पुरतः बालकः सन्ति. बालकाः सन्ति.
बालकाः. कीदृश बालकाः?
त्रीणि बालकाः सन्ति.
त्रीणि वा? त्रीणि तु कीदृश पदम्?
त्रीणि त्रीणि तु
स्त्री
हो गया. स्त्रीलिङ्ग.
नपुंसकलिङ्ग.
नपुंसकलिङ्ग.
साहाय्यं करोतु कोऽपि.
त्रीणि बालकानि सन्ति.
बालका कीदृश पदं भगिनि?
बालकाः. त्रयोः त्रयोः
त्रयः
त्रयः त्रयः बालकाः.
तदेव सुन्दरं.
त्रयः बालकाः
सन्ति. सन्ति कीदृश बालकाः? पापाजी कीदृश बालकाः?
कीदृश
कीदृश. सुधा भगिनी कीदृश बालकाः?
विद्यार्थिन्यः.
विद्यार्थी कीदृश पदम्?
विद्यार्थिन् इति पुंलिङ्गपदं.
पुंलिङ्ग नकारान्त विद्यार्थिन् इत्युक्ते नकारान्तपदमस्ति गुणिन्वत् इत्युक्ते गुणी गुणिनौ गुणिनः विद्यार्थी एकवचन विद्यार्थिनौ विद्यार्थिनः नकारान्त पुंलिङ्गं पदं गुणीवत् अवदतु
मुनिवरस्य पुरतः विद्यार्थिनः सन्ति
विद्यार्थिनः सन्ति त्रयः विद्यार्थिनः सन्ति उत्तमं तदेव शिवरूपा भगिनी वदतु
अहं भगिनि सेकेण्ड् वन् भगिनि मुनिवरस्य पृष्ठतः गृहमस्ति
गृहं तु
वृक्षं वा भगिनि वृक्षमस्ति
वृक्षं कीदृशपदम्
वृक्षः वृक्षः अस्ति
महान् वृक्षः
महान् वृक्षः अस्ति महान् वृक्षः पृष्ठतः गृहमस्ति
विशाल विशाल पिपल् कोवि विशालवृक्षः अस्ति अन्यवाक्यं रचयतु भगिनि
वृक्षस्य पृष्ठतः गृहमस्ति
वृक्षस्य पृष्ठतः गृहमस्ति अन्यथा किमपि कुटीरः अस्ति
मुनिवरस्य कुटीरः अस्ति
अस्ति उत्तमम् उत्तमं पापाजी वदतु
कुटीरे एकं महिला
उपविशति उत्तमम् उत्तमं सुधा भगिनी
आं भगिनि मुनिवरः वृक्षस्य पुरतः अस्ति
पुरतः अस्ति उपविशति किं करोति अधः भागः भूमौ अस्ति भूमौ भूमौ इत्युक्ते भूमौ इत्युक्ते विभक्तिरूपं वदतु न भगिनि भूमौ सप्तमी भूमी भूमौ भूमौ अस्ति इत्युक्ते जमीन् परि I suppose in a raised ground only. मुनिवरः किं करोति
मुनिवरः सम्भाषणं करोति
सम्भाषणं करोति वा
सम्भाषणं न
पाठयति
पाठयति
उपदेशं
उपदेशं करोति
उपदेशं करोति उत्तमम् उत्तमम् अग्रिमं पुटे मुनिवरः वृक्षस्य मुनिवरः वृक्षस्य
अहम् इति पठामि भगिनि मुनिवरस्य मुनिवरः वृक्षस्य पुरतः अस्ति
अस्तु अस्तु अग्रिमं करोतु दीप्षिका भगिनि
मुनिवरः अच्छा ये तो हो गया मुनि मुनि मुनिवरस्य अध्य अध्य
अधः
अधः
मुनिवरस्य अधः
मुनिवरस्य अधः
अधः इत्युक्ते किम् अस्ति तत्र
चबूतरा
तस्य संज्ञापदं किं पापजी साहाय्यं करोतु किं तत्तु अहमपि न जानामि तस्य नाम किम् मञ्चः अस्ति मञ्चे पुनः वदतु
मुनिवरस्य अधः मञ्चे अस्ति
मञ्चे अस्ति वा अस्ति इत्युक्ते
नीचे मञ्च है
विभक्तिरूपं किम् प्रथमविभक्ति कीदृशपदम् वदतु प्रथमविभक्ति मञ्चः मञ्चे अस्ति तु न मञ्चे वाक्यं पूरयतु मञ्चे इत्युक्ते किं
मञ्चे मञ्चे मुनिवरः अस्ति
अस्ति उत्तमं तदेव कस्य शी अण्डर्स्टूड् देट् कस्य क्रमः शिवरूपभगिनी वा सुधा भगिनी वा अत्र
मम क्रमः भगिनि
करोतु शिवरूपभगिनी
मुनिवरस्य दक्षिणतः पर्वतानि सन्ति
पर्वतानि सन्ति वा
पर्वतः अस्ति वा भगिनि
पर्वतः
अस्ति पर्वतः अस्ति
पदं तु नास्ति पुंलिङ्गं पदं
पर्वतः अस्ति
सुधा भगिनि
कुटीरस्य अन्तः एकः विद्यार्थी अस्ति
विद्यार्थी अस्ति अपि च यदि महिला अस्ति चेत् विद्यार्थिनीवत् अस्ति
विद्यार्थिनी अस्ति
विद्यार्थिनी अस्ति किमपि अस्तु हा पापाजी अन्यवाक्यं वदतु
त्रीणि बालकानि
त्रयः बालकाः
ध्यानेन
शृण्वन्ति सुन्दरं शृण्वन्ति उत्तमं कस्य क्रम दीक्षिका भगिनी भवति
मुनिवरः कुटीरात् इत्युक्ते
कुटीरात् इत्युक्ते पञ्चमी
अच्छा कुटीरात् पञ्चमी कुटीर से मुनिवरः कुटीरात्
किं
कुटी से तो कुछ भी नहीं आया
साहाय्यं करोतु कोऽपि साहाय्यं करोतु मुनिवरः कुटीरात्
भोजनम्
पूर्वतः आगे
कुटी से आगे पूर्वतः अस्ति
कुटीरस्य पुरतः वा कुटीरस्य पुरतः किन्तु कुटीरात् कुटीरात् आगच्छति कुटीसे आये आ रहे हैं कुटीसे आये अपि च कुटीरात् आगतवान् कुटीसे कुटीर से आये
कुटीरात् भोजनम्
कुटीरात् भोजनम् इत्युक्ते कुटी से भोजनम् है कुटी से भोजन है दैट डजंट मेक सेंस हां
इति प्रयोजनम् समीचीनं वा भगिनी मुनिवरः कुटीरात् दूरे अस्ति
कुटीरात् दूरे नास्ति वा अस्ति वा समीपे अस्ति कुटीरात् समीपे कुटीरस्य समीपम् इति वयं प्रायः इति तु अहं शृण्मः कुटीरात् समीपे तु अहं न शृणोति भगिनि अस्तु अत्र दत्तं कुटीरात् बहिः अस्ति मे बि समीचीनं भगिनि कुटीरात् बहिः अस्ति इति एकं समीचीनं वाक्यं कुटीरात् बहिः अस्ति अस्तु पञ्चमी अपि योजयामश्चेत् समीचीनमेव बहिः कुत्र दत्तम् अस्य अस्माकं पुस्तके तु वयं मैसूरुतः बहिः अन्तः बहिः बालिका कुत्रापि बालिका अन्तः अस्ति अस्तु अस्तु उत्तमं तत्पश्चात् एकम् अन्य अभ्यास अस्ति तत्र अस्ति वा हा करोतु पापाजी पठतु अभ्यास एकविंशतिः पठतु ऊहितेन इत्युक्ते ऊहितेन तृतीया उचितेन तृतीया शब्देन तृतीया रिक्तस्थानानि पूरयत्
याने चालकस्य पृष्ठे जनाः उपविशन्ति
पृष्ठतः जनाः उपविशन्ति समीचीनं दीप्षिका भगिनी
कक्ष्यायाम् अध्यापकस्य छात्राः उपविशन्ति कक्षा में अध्यापक के कोई गिनती बोलनी होगी कक्षायाम् अध्यापकस्य पुरतः छात्राः उपविशति बिन्दु नहीं दिख रही है
उपविशन्ति छात्र उपविशन्ति उत्तमं मुद्रणदोषः अस्ति तत्र. हा शिवरूपा भगिनी करोतु.
वृक्षस्य उपरि क्षान्ताः पतिका श्रान्तः पतिकाः उपविशन्ति.
पुनः वदतु.
वृक्षस्य उपरि श्रान्तः पतिकः उपविशन्ति
इत्युक्ते
एनि पक्षी भगिनी, लैक् एनी बर्ड्.
श्रान्तः इत्युक्ते इत्युक्ते किं तत् वाक्यस्य अर्थः कः? अधः इत्युक्ते किम्? इत्युक्ते किं
मतलब
थके हुए श्रान्तः पथिकः इत्युक्ते यात्रिगण.
ओके
पथिकः उपविशन्ति.
On the way of their journey, somebody tired means they will sit. That is okay.
Shrantaha ityukte tired.
So vishranti, vishranti. So taking rest, right?
Atra tu shrantaha pathikaha visheshana visheshya bhavaha.
Bhava. Bhagini.
Uttamam. Sudha bhagini?
Haan bhagini. प्रथमस्य अट्टस्य उपरि द्वितीयः अट्टः भवति.
इत्युक्ते
देर् इस् अटिक् आन् द टाप् आफ् द फस्ट् अटिक्.
इत्युक्ते वन् फ्लोर् आन् टाप् आफ् अनदर्
अटक.
इङ्ग्लिश् अटिक् इस् अ डिफ्रेण्ट् यु नो इन् अमेरिका अटिक् मीन्स् सी इट् बि हार्ड् टु फैण्ड् टु अटिक्स् नो वन् आन् टाप् आफ् इच् अदर्. Attic means top only. So it means it's the floor here. Atta means, atta means it's like a floor.
We have a Tamil word called attaka, which is similar in meaning to attic.
Uttamam, uttamam. Deepshika bhagini?
Phalasya bijam bhavati. Phal ke andar bij hai. Andar ka kya shabd hai? अन्तः फलस्य अन्तः बीजं भवति.
उत्तमं. बीजं भवति कस्य कस्य? हा पापाजी वदतु.
रेखातः
बहिः
बाहर को जाना है क्या?
बहिः बहिः
बहिः रेखातः बहिः यः गच्छति सः बाह्यः.
तदेव सः बाह्यः इत्युक्ते किम्? इत्युक्ते
रेखा के बाहर यह गच्छति सः बाह्यः.
यह जो जाता है वो बाहर है.
हाँ वो बाहर वाला है. बाह्यः वो बाहर वाला हो गया. उत्तमम्. सुधा भगिनी.
हाँ भगिनी. रेखातः यः गच्छति सः ब्राह्मः.
बाह्यः
बाह्यः बाह्यः रेखातः
रेखातः बहिः
टेकातः बहिः यः गच्छति सः बाह्यः
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 बाह्यः इत्युक्ते
रेखा के साथ जो जाति है वो बाह्य है
साथ तो न भगिनी वियोग वियोग इत्युक्ते रेखा के बाहर के बाहर रेखा के बाहर रेखा से बाहर इन हिंदी मीन्स तह इत्युक्ते किम पंचमी अर्थ आयाति वियोग अर्थ आयाति रेखा वियोग रेखा तह बहिः यः गच्छति सः बाह्यः इत्युक्ते अन्तः बहिः पञ्चमी अपि योजयितुम् उत्तमं कस्य क्रमः शिवरूपा भगिनी
भारतस्य उपरि सिन्धुसागरः अस्ति न न भगिनि भारतस्य वामतः सिन्धुसागरः अस्ति
तस्य नाम
अरबीसमुद्रः अस्ति
उत्तमम् उपरि तु अपि भवितुं न अर्हति न
आं भगिनि क्षम्यताम्
दाएं
तरफ है ना भारत के पापा अरबी सागर और दाएं तरफ तो बे ऑफ बंगाल है बंगाल की
बाएं तरफ भारत के बाएं तुम्हारे बाएं तरफ देखने वाले कि नहीं
भारतस्य इत्युक्ते भारत के भारतस्य दक्षिणतः पापाजी इति वदति किं पापाजी पुनः वदतु वाक्यं
भारतस्य दक्षिणे
दक्षिणतः
भारतस्य दक्षिणतः सिन्धुसागरः अस्ति
दक्षिणतः किमर्थं भारतस्य इत्युक्ते भारत के फ्रॉम द पर्सपेक्टिव ऑफ भारत भारतस्य दक्षिणतः It depends, no, how you are standing in India. आप साउथ देखेंगे तो राइट पड़ेगा
नहीं
भारत का मुंह किधर है
जहां भी हो इसके दक्षिण में हुआ है मुंह कहीं भी हो भारत का
कैसे पता चलेगा दक्षिण में या फिर
नक्शा बनाए
ऊपर है और भारत बाहर देख रहा है ये देखना पड़ेगा ना इट्स ऑल रिलेटिव अस्तु उत्तमम हाँ कस्य क्रमः वदतु
भारतस्य दक्षिण ये हो गया तो फिर ये तो उसका लेफ्ट हो गया ना
वामतः
भारतस्य वामतः गंगासागरः बंगालकोली अस्ति
कोली अस्ति बंगालकोली
गंगासागरः बंगालकोली
अस्ति ना इट्स गुड टू रीड समीचीनमेव बंगालकोली अस्ति कीदृश गङ्गासागरः बङ्गालकोल्लि तस्य नाम बङ्गालकोल्लि इति उत्तमं गङ्गासागर गङ्गासागर इत्युक्ते किं यत्र तदेव उत्तमम् उत्तमं हा सुधा भगिनी
वृत्तस्य परिधेहे
एकम् अन्य अस्ति न वृत्तस्य
वृत्तस्य परिधेहे केन्द्रबिन्दुः भवति केन्द्रबिन्दुः
वृत्तस्य इत्युक्ते
वृत्तस्य इत्युक्ते सर्कल्
परिधेः
वृत्तस्य परिधेः
परिधेः इत्युक्ते
परिधेः इत्युक्ते
सर्कम्फरेन्स्
सर्कम्फरेन्स् वृत्तस्य परिधेः केन्द्रबिन्दु इस् फोकस् अन्तः केन्द्रबिन्दुः भवति
भवति मध्ये अपि च मध्ये अन्तः अपि च मध्ये वृत्तस्य परिधेः मध्ये केन्द्रबिन्दुः भवति उत्तमं शिवरूपा भगिनि
आं भगिनि देवालयात् बहिः भक्ताः पादरक्षाः स्थापयन्ति
सुन्दरं देवालयात् इत्युक्ते
देवालयस्य बाहर् भक्त लोग उसका पाद रक्षा छोड़ के छोड़ रहे उधर ही रख रहे स्थापयन्ति रख रहे
उत्तमम् उत्तमम् अग्रिमम् अग्रिमम् एकम् अन्य पुट अस्ति अधोभागे पठतु शीघ्रम्
अधोभागे भगिनि अभ्यासः रिक्तस्थानानि संख्याया सूचितैः पदैः पूरयत् अत्र तत्र सर्वत्र अन्यत्र कुत्र एकत्र भवती अत्र एव तिष्ठतु भवान्
न न अन्य कुत्रापि भवती अत्र एव तिष्ठतु
कुत्रापि मा गच्छतु
कुत्रापि मा गच्छतु दीक्षिका भगिनी भवान्
भवान् उपविशय पठतु
उपविश्य
पठतु
भवान्
उपविश्य इत्युक्ते
किं
बैठ कर पढ़ो
भवान्
अत्र
द्वितीयबिन्दु किं
तत्र
भवान्
तत्र उपविश्य पठतु
इत्युक्ते
भवान् वहां बैठ कर पढ़ो
तदेव पापाजी
किमर्थं सर्वत्र वृथा अटति भवति
इत्युक्ते अर्थ वदतु
why you are roaming around right like that bagini
vritha iste
waste of time
kimapi prayoga nasti tatra tat karyam kimapi
prayoga jivana vritha
asti uttamam ha sudha bagini
आं भगिनि भवान् अत्र वस्तु स्थापयति
भवान् षष्टम बिन्दु भगिनि कोष्टके पश्यतु एकम् आवर्णे कोष्टके आवर्णे एकमेकं बिन्दु दत्तं तस्य पार्श्वे एकमेकं पदं दत्तं भवान् एकत्र
भवान् एकत्र वस्तु स्थापयति
इत्युक्ते
पुट् द क्लोथ्स् इन् वन् प्लेस्
क्लोथ् वा
भवान् वस्तु थिङ्ग्
थिङ्ग् वन् थिङ्ग्
पुट्स् इन् वन् प्लेस्
अग्रिमम्
अन्यत्र अन्वेषणं करोति
इत्युक्ते भवान् एकत्र वस्तु स्थापयति
एक जागा पे एक जागा पे रखकर दूसरी जगह पे सर्च करते
हाँ अन्यत्र So that's what we all do, no?
Yeah.
Otherwise, we'd find everything exactly. The reason we are searching is we are in the wrong place.
Yatra vastu
sthapayatu. Yatra tatra vastu na sthapayatu. Agrimam kasya kramaha. Shashivrupa bhagini.
Kam bhagini. भवतः पुस्तकं कुत्र अस्ति इति अहं न जानामि
भवतः कीदृशपदं
भवतः इति द्वितीयविभक्ति अस्ति भगिनि
द्वितीय वा
न न भगिनि एकनिमिषः षष्टिविभक्ति भगिनि
भवतः द्वितीय अपि अस्ति किन्तु विभक्ति
बहुवचनमस्ति
द्वितीयवचनं भवतः पञ्चमी एकवचनं
षष्ठी पञ्चमी एकवचनम् एकवचनं
भवतः बहुवारम् एकमेव किं टेबल् मध्ये आयाति
भगिनि
उत्तमं भवतः पुस्तकम् इत्युक्ते षष्टिविभक्ति सम्बन्धः भवतः पुस्तकं
कुत्र आपका बुक आपका बुक किधर है पता नहीं मुझे
उत्तमं तदेव सुधा भगिनि
आं भगिनि तत्र जलम् अस्ति अतः अत्र भवान् उपविशतु
तत्र जलमस्ति अतः अतः इत्युक्ते
अतः
अतः इस् हियर् इतः इस् हियर्
फ्रम् हियर्
इतः इतः इस् हियर् अतः इस् देर् अतः
देयरफोर्
देयरफोर्
अतः भवान् उपविशतु अत्र उपविशतु दीक्षिका भगिनि
अत्र भवान् हृदि बोलते
भवान् अत्र उपविशतु
दीक्षिका भगिनि
सर्वत्र देवः अस्ति इति भारतीयाः विश्वसन्ति
इत्युक्ते
सब जगह भगवान है यह भारतीयों का विश्वास है
विश्वसन्ति
विश्वसन्ति
इति भारतीयाः भारतीय लोगों का भारतीयों का विश्वसन्ति
विश्वसन्ति विश्वास है
विश्वसन्ति विश्वसन्ति क्रियापदं तत्र विश्वसन्ति अस्तु पापाजी अग्रिमं पठतु
भवतः गृहं
पञ्चमी बिन्दु कोष्टके दत्तं तत्र
भवतः गृहं कपाटिका अस्ति
न एकं कोष्टकं दत्तं तत्र
भवतः गृहं कुत्र अस्ति भवतः गृहं कुत्र अस्ति
कुत्र अस्ति भवतः गृहं भवतः कीदृशपदम् तदेव षष्ठी गृहं गृहं कीदृशपदं विभक्तिरूपं किमर्थं द्वितीय प्रथम एव अस्ति तु अकर्मकः अस्ति भगिनि
मम गृहम् इदानीं तत्र नास्ति अन्यत्र अस्ति
इदानीम् इत्युक्ते अधुना तत्र नास्ति अन्यत्र अस्ति अन्यत्र इत्युक्ते
somewhere else
मम गृहं मम इत्युक्ते कीदृशपदम्
मम षष्ठी विभक्ति
प्रातिपदिकम्
अस्मत्
अस्मद्दकारान्त उत्तमम् इदानीं कीदृशपदम्
इदानीम् अव्ययपदमस्ति
अव्ययपदम् उत्तमं शिवरूपा भगिनी
आं भगिनि भवान् सर्वत्र मा पश्यतु अत्र पश्यतु
इत्युक्ते
आप् सभी जगह मत देखो इधर देखो सब जगह
जगह मत देखो इधर देखो अस्तु शीघ्रं अग्रिमं करोतु दीपशिका भगिनी
अभ्यास
त्रयोविंशति
पुस्तकं कुत्र
अस्ति
पुस्तकं प्रकोष्ठे अस्ति
प्रकोष्ठः पुंलिङ्गं पदं सप्तमीरूपं प्रकोष्ठे अग्रिमं करोतु
पुस्तकं गृहमस्ति
सप्तमी न
पुस्तक घर के अंदर है तो गृहे
पुस्तकं
गृहे
अस्ति पापा जी पुस्तकं
शालायाम् अस्ति
उत्तमं शालायाम् अस्ति सुधा भगिनी
पुस्तकम् उत्पीठिकायाम् अस्ति
सुधा शिवरूप भगिनी
पुस्तकं कपाटिकायाम् अस्ति
दीपशिका भगिनी
पुस्तकं स्यूते अस्ति
पप्पाजी
पुस्तकम्
आपणे दुकान दुकान को आपण
पुस्तकम् आपणे अस्ति
अग्रिमं पठतु सुधा भगिनी
बालकः कुत्र उपविशति बालकः आसन्दे उपविशति बालकः कटः
इत्युक्ते किं चटै चटै
जानाति
न चटै इत्युक्ते
लैक् मेट्
ग्रास् मेट्
बालकः कटे उपविशति
कटे उपविशति शिवरूप भगिनि
बालकः वस्त्रकटे उपविशति
वस्त्रकटे इत्युक्ते
लैक् क्लात् मेट् भगिनि द मेट् मेड् अप् क्लात् वस्त्रकटे उपविशति
उपविशति दीपशिका भगिनी
बालकः मञ्चे उपविशति मञ्चके उपर
उत्तमं पापाजी
बालकः भूम्या
भूमौ किमर्थं भूमौ
नदीवत्
न भगिनी भूमि स्त्रीलिङ्गं पदं
भूमि नदीवत् सारि क्षम्यतां
भूम्यामपि भूमौ मतिवत् भगिनि मतिवत् अस्ति चेत् भूम्यां भूम्यौ भूमौ भूम्याम् अपि वा अपि भूम्मौ सप्तमी एव
भूमौ उपविशति
अपि च बालकः भूम्यां वसति समानेव उत्तमम् सुधा भगिनी
बालकः आन्दोलिकायाम् उपविशति
आन्दोलिका इत्युक्ते
लैक् अ स्विङ्ग्
आन्दोलिकायाम् उपविशति आन्दोलिकायाम् आन्दोलिका इत्युक्ते हा झूला आन्दोलिका तदेव
आंदोलन करते
हैं हाँ अस्तु हाँ शिवरूपा भगिनी
बालकः वृक्षे उपविशति
पाकशाला दत्तं न तत्र
पेज् नंबर आं भगिनि अत्र अस्ति बालकः पाकशालायाम् उपविशति
इत्युक्ते
किचन् किचन् मे बैठा है
तदेव दीप्शिका भगिनि
बालकः उद्यानम् उद्याने उपविशति
इत्युक्ते
बगीचे
मे गार्डन् मे उत्तमम् उत्तमम् पापाजी अग्रिमं पठतु अभ्यासः
आवरणैः दत्तस्य शब्दस्य बहुवचनरूपेण रिक्तस्थानं पूरयत्
पूरयत पूरयत कीदृशपदम् कीदृशपदं कोऽपि वदतु
पूरयत् पूरकरो
कीदृशपदं भगिनि परिचय दत्तु वदतु
पूर्धातु अस्ति भगिनि
पूर्धातु लकार किं
पूरयत् इति लङ् लकार अस्ति भगिनि
न भगिनि वदतु सुधा भगिनि वदतु
पूरयतु अस्ति चेत् लट् लकार
पूरयतु तु लट् नास्ति सुधा भगिनी वदतु
पूरयत् इति
पूरयत
पूरयत पूरयत इति
लङ्लता
लङ् इत्युक्ते किम् भूतकालार्थक अपि च लट् इत्युक्ते किं लट् इत्युक्ते किं हा लट् लृट् इत्युक्ते
किं
लट् इत्युक्ते भविष्यत्काल अधुना अधुना किम् सात् और बचे
बिगिनिङ्ग् भगिनि
न न न लोट् भगिनि
लोट्
लोट्
सर्वाणि रूपाणि वदतु शिवरूपा भगिनी लोट्
आं भगिनि पूरयत् पूरयत्
समीकरोतु भगिनि लोट् सुधा भगिनी वदतु
पूरयति
पूरयति तु लट् अस्ति अधुना लोट् वदतु
लोट् पूरयतु पूरतु पूरयता पूरतात् पूरयतां पूरय पूर पूरतां
पूरयतु
पूरयन्तु पूर पूरन्तु
अग्रिमम्
अग्रिमं पूरय पूर पूरयतात् पूरतात् इति मध्यमपुरुष एकवचन पूरयतं पूरतम् इति द्विवचनं पूरयत् पूरत इति बहुवचनं
पूरयत
पूरयत् बहुवचन मध्यमपुरुष बहुवचन
मध्यमपुरुष बहुवचनरूपम् इत्युक्ते किम्
सेकेण्ड् पर्सन् यु
यु
पदं वदतु
यूयं
पूर्णतया वदतु भगिनि
यूयं यूयं रिक्तस्थान रिक्तस्थानं पूरयत
तदेव पूरयत यूयं पूरयत इत्युक्ते आज्ञा भवन्तः पूरयन्तु भवन्तः पूरयन्तु इत्युक्ते किम्
उत्तमपुरुष बहुवचनं
उत्तम कथं भगिनि भवान्
प्रथमपुरुष प्रथमपुरुष बहुवचनं सारि
प्रथमपुरुष बहुवचनरूपमस्ति भवान् भवन्तौ भवन्तः पूरयतु देन् पूरयत् मध्यम द्विवचने वदतु
पूरयतां पूरयन्तु
पूरयन्तु भवन्तः पूरयन्तु अपि च यूयं पूरयत अपि च वयं
पूरयाम
पूरयामः पूरयामः
पूरयामः
विसर्ग नास्ति विसर्ग अस्ति चेत् तु लट् अस्ति पूरयाम इत्युक्ते अहं पूर
पूरयामि
तत्तु लट् अस्ति भगिनि पूरया
पूरयामि अहं अहं पूरयामि
नि अस्ति चेत् लोट् अस्ति अहं पूरयामि आवां
पूरयाव वयं पूरयाम
वयं पूरयाम अवगतं सर्वे
भगिनि
एकवारं वदतु दीक्षिका भगिनी सर्वाणि रूपाणि पूरयतु
पूरयतु
पूरयतां
पूरयतां
पूरयन्तु
पूरयन्तु
मध्यमपुरुष पूरय
पूरय
पूरयतम्
पूरयतम्
शिवरूप भगिनी लघु लघु वाक्यानि रचयतु भवान्
आम भगिनी भवान् पूरयतु भवान् पूरयतु भवतौ पूरयतु भवन्तौ पूरय पुरतां भवते
भवते वा
भवतः भवताः सारी भगिनी भवन्त भवन्त
समीकरोतु भगिनी भवान् भवन्तौ
भवान् भवन्तौ भवन्तः 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 पूर्यन्तु
तदनन्तरं
त्वं पूर्वः पूर्वा त्वं
पूरय
त्वं पूरय युवां पुरतां यूयं
मध्यमपुरुष द्विवचन वदतु सुधा भगिनी
पुरता भगिनि
पूरयतम् अपि च अन्यरूपं
पूरतं
पूरतं
पूरतं पूरतम्
अनन्तरं
यूयं पूर्वत
पूरयत
पूरयत
यथा अत्र दत्तं भगिनि पूरयत अभ्यास चतुर्विंशति किं दत्तम् आवर्णैः दत्तस्य शब्दस्य बहुवचनरूपेण रिक्तस्थानं पूरयत इत्युक्ते किं
पूरयत यूयं पूरयत
उत्तमपुरुषरूपाणि वदतु
अहं पूर्वाणि पूरयानि आवां पूरयाव वयं पूर्वाम पूरयाम
पुनः वदतु
अहं पूर्वाणि
एकवारं पश्यतु अष्टाध्यायी मध्ये सुधा भगिनी लिंक प्रेषयतु कृपया
पुरयाम अहं पुरयाम भगिनि
पुरयाम लिंक पश्यतु भगिनि
अहं पुरयाम आवा पुरवा नोट ओके भगिनि आं भगिनि अहं अहं लोट् लकार रैट् भगिनि
लोट् वदतु भगिनि
परस्मै पुरयानि आवां पुर्याव वयं पुर्याम पूरयाम
पापाजी उदाहरणं पठतु कोष्टके दत्तं कोष्टके
वानराः
वृक्षाः इत्युक्ते वचनं किम्? नरः तु नरे नरयोः, तदनन्तरं बहुवचनं नरे नरेषु नरेषु वृक्षेषु निवसन्ति इत्युक्ते
वृक्षों में रहते
हैं, तदेव उत्तमं। वानराः वृक्षेषु निवसन्ति, उत्तमं। दीपशिखा भगिनी,
पुष्पाणि लतेषु विराजन्ति।
लतेषु वा, लता कीदृशपदम्?
स्त्रीलिङ्गपदम्।
स्त्रीलिङ्गम् आकारान्त स्त्रीलिङ्ग रमावत्। वदतु सप्तमी रमा, रमा प्रातिपदिकस्य सप्तमी वदतु। रमायां वदतु भगिनि, रमायां
रमयोः, रमायां रमयोः रमासु,
रमासु अत्र
पुष्पाणि लतासु विराजन्ते।
लतासु विराजन्ते, तदेव। सुधा भगिनी,
आं भगिनि, कूप्यः औषधम् अस्ति, कूप्येषु औषधम् अस्ति।
कूप्यः कीदृशपदम्?
कूप्यः इति पुंलिङ्गपदम् अस्ति।
कीदृशपदं पुंलिङ्गम्?
कूप्यः इति
कीदृशपदम्?
कूप्यः एकवचनपदम्।
कीदृशपदम् एकवारं पश्यतु।
ईकारान्त नदीवत् भगिनी, कूपी
कूपी दीर्घ ईकारान्त। लिङ्गं किं?
स्त्रीलिङ्गं भगिनि,
स्त्रीलिङ्गम्।
दीर्घ ईकारान्त स्त्रीलिङ्ग नदीवत् शब्दः,
तदेव। प्रथमविभक्तिरूपाणि वदतु सुधा भगिनी।
कूपी कूप्यौ कूप्यः,
नदी नद्यौ नद्यः, तदेव। अधुना नदी सप्तमी वदतु।
सप्तमी कूप्यां कूप्योः कूपीषु,
कूपीषु नदीषु दीर्घ ईषु न, उत्तमं। कूपीषु औषधम् अस्ति। शिवरूपा भगिनि,
आं भगिनि, उद्योगिनः कार्यालयाः कार्यं कुर्वन्ति, उद्योगिनः कार्यालयेषु कार्यं कुर्वन्ति।
इत्युक्ते
वर्कर्स् आर् डूयिङ्ग् वर्क् अट् आफीस्,
कुर्वन्ति, तदेव। तदेव पापाजि,
यानानि मार्गाः सञ्चरन्ति, यानानि मार्गोपरि।
सप्तमी कोष्टके पश्यतु, कोष्टके एकं वाक्यं दत्तं, तत् पश्यतु। कोष्टके दत्तम् एकं वाक्यम्, उदाहरणानि रूपाणि कोष्टके, तत्रैव कोष्टके
उद्योगिनः कार्यालयेषु
यानानि
मार्गेषु सञ्चरन्ति.
तदेव इत्युक्ते अर्थः कः?
यान जो है जो वो मार्ग पर चल रहे हैं.
गाड़ियां
सड़क पर चल रही हैं.
सड़कों पर चल रही हैं. तदेव तदेव. दीपशिका भगिनी.
छात्राः विद्यालयाः पठन्ति. तो छात्राः विद्यालयसु.
कीदृशपदं तत्र?
आकारान्त स्त्रीलिङ्ग.
कथं जानीमः आकारान्त स्त्रीलिङ्गं वा अत्र? रामः
रामवत्
रामवत् प्रथमविभक्ति वदतु. रामः
राम रामौ रामाः.
अपि च लता वदतु. लता
लताः
लताः
लताः.
बहुवचनरूपाणि पुंलिङ्गम् अस्ति चेत्
लताः.
पुंलिङ्गम् अस्ति चेत्
रमाः.
रमा तु स्त्रीलिङ्गं भगिनि. रामाः तु पुंलिङ्गम् अस्ति. स्त्रीलिङ्गं लता
रमाः.
समानेव रमाः रामाः समानेव. अन्ते तु समानेव. समानेव अस्ति चेत् कथं जानीमः अत्र लिङ्गं किं? विद्यालयाः कीदृशपदं कथं जानीमः लिङ्गम्? विद्यालयः
विद्यालयौ विद्यालयाः.
इत्युक्ते लिङ्गं किं?
पुंलिङ्गं
पदं.
छात्राः विद्यालयेषु विद्यालयेषु पठन्ति.
तदेव उत्तमम् उत्तमम्. सुधा भगिनी.
आं भगिनि. जनाः आसन्देषु उपविशन्ति.
आसन्देषु आसन्दाः आसन्देषु उपविशन्ति. सुन्दरं. शिवरूपा भगिनी.
आपणाः विक्रयाणं प्रचलति. आपणेषु विक्रयाणं प्रचलति.
विक्रयाणं वा
विक्रयणं?
विक्रयणम् इत्युक्ते
विक्रयणं. विक्रयणम् इस् नथिङ्ग् बट् टेकिङ्ग् सेल्लिङ्ग् सेल्लिङ्ग् मार्केटिङ्ग् विक्रयणं प्रचलति
प्रचलति. दीप्तिका भगिनी.
एतानि पुस्तकानि दोषाः न सन्ति.
सप्तमी किं? पुस्तकानि सप्तमी किम्? नपुंसकलिङ्गमस्ति चेत् सप्तमी रूपाणि किं कानि? वदतु.
पुस्तकानि पुस्तकानिषु. एतानिषु
एतानि कीदृशप्रातिपदिकं किं? प्रातिपदिकं किं? साहाय्यं करोतु कोऽपि. एतानि कीदृशपदम्?
एकानि एतानि इति एषः एतत् शब्दः अस्ति भगिनि, तकारान्तपुंलिङ्गम्.
कीदृशपदं? सर्वनामपदम्. सर्वनामपदम् अस्ति चेत् एतद् तकारान्त अस्ति चेत् सप्तमी रूपाणि कानि?
एतेषु
सर्वाणि रूपाणि वदतु भगिनी, सप्तमी.
एतस्मिन्, एतयोः, एतेषु.
तदेव सुन्दरम्. एतस्मिन्, एतयोः, एतेषु. वदतु दीक्षिका भगिनी.
एतेषु पुस्तकानेषु दोषाः. एतेषु यह पुस्तक में दोष नहीं है.
पुस्तक कीदृशपदम्?
पुस्तकेषु.
पूर्णपूर्णतया वदतु.
एतेषु पुस्तकेषु दोषाः न सन्ति.
तदेव सुन्दरम्. पापाजी,
वदतु.
भारतीया जनेषु देवभक्ति अधिका.
भारतीयाः सप्तमी वदतु. कीदृशपदम्? आकारान्त वा
रमावत्?
भारतीयाः जनाः, अत्र तु कीदृश सम्बन्ध अस्ति? जनाः इत्युक्ते विशेषणविशेष्यभाव अस्ति. जनेषु अस्ति चेत् भारतीयाः इत्युक्ते भारतीयेषु अस्ति वा?
भारतीयेषु जनेषु देवभक्तिः.
तदेव भारतीयाः अपि च जनाः, अत्र तु बहुवचनरूपमस्ति. तदनन्तरं तदेव भारतीयेषु जनेषु देवभक्तिः अधिका. किमर्थम् अधिका? किमर्थम् अधिका आकारान्त दत्तम्? देवभक्ति अपि स्त्रीलिङ्गं पदं. सुन्दरं. तदेव. सुधा भगिनि.
सा सख्यः अधिकं विश्वासं करोति. सा सखीषु अधिकं विश्वासं करोति.
सुन्दरं. सखीषु दीर्घ. सखीषु अधिकं विश्वासं करोति. सुन्दरं. शिवरूपा भगिनि.
चलनचित्राणि मम आसक्तिः नास्ति. चलनचित्रेषु मम आसक्तिः नास्ति.
नास्ति. सुन्दरं. दीप्षिका भगिनी.
ग्रहिण्यः कार्यकौशलं सहजम्.
कीदृशपदं? ग्रहिण्यः.
पुंलिङ्गं
वा? गृहिणी कीदृशपदं?
गृहिणी.
नदीवत्.
ईकारान्त स्त्रीलिङ्ग नदीवत् गृहिणी.
वदतु.
गृहिणी गृहिणीषु.
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 शु वा?
गृहिणीषु.
अग्रिमं.
गृहिणीषु कार्यकौशलं सहजम्.
इत्युक्ते इत्युक्ते
गृहिणी लोग कार्य करने में कुशल हैं, सहजम।
सहजम इत्युक्ते
कार्य कौशलम सहजम, सहज से करती हैं, आराम से सहजता से कार्य करती हैं।
उत्तम सुंदरम। हाँ पापा जी,
विद्यार्थिना टिप्पणी पुस्तका टिप्पणी पुस्तक नाम लिखन्ति, टिप्पणी पुस्तिका
पुस्तक में लिखते हैं, टिप्पणी पुस्तक उनको मिलती है की बुक
पुस्तके।
हाँ पुस्तके तो एकम एकम एव वचन अस्ति, बहुवचन अस्ति चेत्
पुस्तकेषु,
टिप्पणी पुस्तकेषु।
वदतु।
विद्यार्थिना टिप्पणी पुस्तकेषु
लिखन्ति, टिप्पणी पुस्तकेषु लिखन्ति इत्युक्ते किमर्थं की बुक्स न क्या
टिप्पणी मतलब की
की
बुक में लिखते
हैं
टिप्पणियां वाले टिप्स होता है, टिप्पणी दे दो
है ना,
क्विक टिप्स टिप्पणी।
हाँ सुधा भगिनी।
हाँ भगिनी, समुद्र तीरे बालकाः सिकताः क्रीडन्ति, समुद्र तीरे बालकाः सिकतासु क्रीडन्ति।
सिकतासु इत्युक्ते
सैंड, इन द सैंड,
सिकतासु सिकतासु क्रीडन्ति। उत्तमम्। शिवरूप भगिनी,
नटः चलनचित्राणि अभिनयनं करोति, नटः चलनचित्रेषु अभिनयनं करोति।
अभिनयनम्,
अभिनयनम् इस् एक्टिङ्ग्, अभिनयम् सारी अभिनयं करोति, अभिनयं करोति।
नटः चलनचित्रेषु अभिनयं करोति। सुन्दरं, बहु किमपि अद्य वयं कृतवन्तः। धन्यवादः सर्वेभ्यः, नमस्कारः, अधुना तु विरमामः। नमस्कारः, धन्यवादः।
नमस्कारः, धन्यवादः भगिनी।
शान्तिपाठ पापाजी वदतु। शान्तिपाठ
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ
सर्वं श्रीकृष्णार्पणमस्तु। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः, नमस्कारः।
धन्यवादः, नमस्कारः। नमस्कारः पप्पाजी, नमस्कारः दीप्षिका भगिनी, धन्यवादः।
धन्यवादः।